नीलाकुलल्लोला कालव्यालविलासिने गणेशाय नमो नीलकमलामलकान्तये
अस्तु तर्हि अनुष्टुप् छन्दः अत्र दृश्यते खलु अनुष्टुभ वदतु
अनुष्टुभ
हा अनुष्टुभ छन्दः प्रत्येकस्मिन् पादे कति अक्षराणि आसन् गतवर्गे दृष्टवन्तः अष्ट खलु अष्ट न वदतु प्रत्येकस्मिन् पादे वदतु प्रत्येकस्मिन् पादे Just repeat after me. Kim abhavat? So, agrimam mangalam karatu?
Pritim bhakta jalasya yojanayate Vignam vignam smritaha Tam vrindaraka vrindavandita padam मत्वा मतङ्गाननम् आतीसत्कृतस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटां संक्षिप्ताक्षरकोमलामलपदैः लालित्यलीलावती
उत्तमम् अत्र द्वादशयोग कति अक्षराणि भवन्ति द्वादशयोग सप्त खलु ट्वेल्व् प्लस् सेवेन् कति कति ट्वेल्व् प्लस् सेवेन् का सङ्ख्या नवदश वदतु नवदश अलिख्या अस्ति अर्णा अस्ति वा अर्णा न अस्तु तर्हि हा एकवारं चतुर्थीविभक्तेः अभ्यासं कुर्मः तर्हि वत्सः किं भवेत् पठतु वत्साय वत्साभ्यां वत्सेभ्यः पठतु अनिख्या दृश्यते खलु अनिख्य पठतु वत्साय वत्साभ्यां
वत्सेभ्यः
यु शुड् गिव् लिटल् वट् यु से अवधानं दट् मीन्स् योर् अवधानं योर् वट् यु से योर् अटेन्शन् शुड् बि अट् दिस् वत्सेभ्यः दिस् ए विल् हेल्प् यु टु रिमेम्बर् ओके अनन्तरं वत्सस्थाने यदि अहं बाल चिनोमि तर्हि किं भवेत् अकारान्तपुल्लिङ्गबालशब्द तर्हि बालाय
बालाय बालाभ्यां बालेभ्यः
बालेभ्यः उत्तमं यदि वेदः अकान्तपुल्लिङ्गवेदशब्द
वेदाय वेदाभ्यां वेदेभ्यः
उत्तमं अग्रे आहार अकारान्त पुल्लिङ्ग एव पठतु आहाराय
आहाराय आहार
न न आहाराभ्याम्
आहाराभ्याम्
आहारेभ्यः
आहारेभ्यः
अत्र आहार इति पदम् अस्माकं पुस्तके अस्ति खलु सप्तमे पाठे अस्ति खलु व्याघ्रः अस्ति तस्य अतः आहारः इति पदमस्ति पश्यतु पुस्तके बालदर्शपुस्तके दृश्यं वा व्याघ्रः अस्ति तस्य अतः आहारः पदमस्ति खलु अकारान्त पुल्लिङ्गः अनन्तरं स्त्रीलिङ्गं विद्या किमस्ति दकारयोग यकारयोग अकार तर्हि य खलु य य अर्थात् किं यकारयोग अकार य तस्य पूर्वं दकार तर्हि द योग यकारः योग अकार द्य तर्हि विद्या तर्हि विद्यायै विद्याभ्यां विद्याभ्यः पठतु
विद्यायै विद्याभ्यां
विद्याभ्यः
विद्याभ्यः
माला
माला माले
माला न न माला वी आर डायरेक्टली रीडिंग चतुर्थी मालायै
मालायै माला
भ्याम
मालाभ्याम मालाभ्यः
अग्रे बालिका
बालिका बालिके
बालिकाः खलु तदस्ति प्रथमा इदानीं चतुर्थी खलु कुर्मः खलु अलिख्या इदु चतुर्थी भवति खलु सो वि आर् रीडिङ्ग् ओन्लि द चतुर्थी रैट् नौ बालिकायै पठतु अरे पठनं दृश्यते खलु अलिख्या तर्हि किमर्थं दृष्ट्वा न पठति बालिकायै पठतु
बालिकायै बालिकाभ्यां बालिकाभ्यः
माला पुनः एकवारं करोतु माला
माला माला माले
अरे प्रथमाविभक्ति न अलिख्या नाट् फस्ट् प्रथमाविभक्ति चतुर्थी विभक्ति मालायै यु आर् एबल् टु सी द स्क्रीन् रैट् माला इस् देर् हियर्
माला मालायै मालाभ्यां मालाभ्यः
महिला किं भवेत्
महिला महिलायै महिलाभ्यां महिलाभ्यः
श्रद्धा
श्रद्धा श्रद्धायै श्रद्धाया श्रद्धाभ्यां श्रद्धाभ्यः
श्रद्धाभ्यः श्रद्धाभ्यः उत्तमम् इदानीं नपुंसके ज्ञानम् अत्र पश्यतु हौ डु यु डु द उच्चारण ज योगय ज्ञानं खलु ज्ञानं सो दिस् चकार इस् आल्मोस्ट् वेरि लिटिल् हर्ड् मोस्ट् इस् दिस् ज्ञ खलु दिस् इस् अर्धमात्रकाल् वि नो वाट् इस् एकमात्रकाल् वन् क्लाप् रैट् सो दिस् ज हलन्त ज इस् अर्धमात्रा इट्स् हाफ् आफ् इट् अवगतं वा विज्ञानं ज्ञानं से एण्ड् वेन् यु सिङ्ग् ज्ञ दिस् य च छ ज ज ह्य अस्ति खलु यकारयोग अकार इस् दे रैट् ह्य सो दिस् पञ्चमवर्ण यु शुड् यूस् युर् नासिका एण्ड् युर् मिडल् पार्ट् आफ् द टङ्ग् शुड् टच् द ताल्लव्यपुरुषः खलु च छ ज झिञ ताल्लव्यवर्णः खलु सो नौ यु टेक् दट् एक्स्पीरियन्स् अनुभवं स्वीकृत्य वदतु ज्ञ से ज्ञ ज्ञ दिस् ज इस् आल्मोस्ट् नाट् हर्ड् ज्ञ ज्ञानं वदतु ज्ञानं सो इट् यु आर् एक्चुलि जिप् युर् टङ्ग् स्टार्ट्स् वित् ज उच्चारण बट् इट् गोस् टुवर्ड्स् ज्ञ खलु ज्ञानं युर् मिडल् पार्ट् आफ् द टङ्ग् इस् टचिङ्ग् द ताल्लव्य रैट् वेन् यु डूङ्ग् द उच्चारण से च छ ज झ ञ से
छ ज झ ञ
वेन् यु सिङ्ग् य यूस् युर् नोस्ट्रल् इट् शुड् बि अ नासिका प्रोनौन्स् ञ से यूस् ज्ञानम् अवगतम् नमस्ते ज्ञानाय
ज्ञानाय
ज्ञानाभ्यां
ज्ञानाभ्यां
ज्ञानेभ्यः
ज्ञानेभ्यः
सो नपुंसके तथा पुल्लिङ्गे समानेव भासते वा पश्यतु वत्साय वत्साभ्यां वत्सेभ्यः ज्ञानाय ज्ञानाभ्यां ज्ञानेभ्यः खलु सिमिलर् न पुष्पं किं भवेत् प्रातिपदिकं पुष्प अकारान्तपुष्प नपुंसक पुष्पाय वद
पुष्पाय पुष्पायै
न न न पुष्पाभ्यां
पुष्पाभ्यां
पुष्पेभ्यः
पुष्पेभ्यः
यथा ज्ञानम् आसीत् तथैव खलु नपुंसक अस्ति खलु इदानीं मित्रं यदि मित्रं चिनुमः प्रातिपदिकं मित्र चतुर्थीविभक्तिरूपं वद मित्राय मित्रेभ्यः उत्तमम् अस्तु इदानीं किं कुर्मः अग्रे सरिमः भ्राम्यति अस्तु विल् कम् टु दिस् क्रियापद अग्रे अग्रे इदानीं इमानि वाक्यानि वाक्यं कीदृशपदम् अलिख्य पुल्लिङ्गं स्त्रीलिङ्गे नपुंसकलिङ्गं वाक्यं वाक्ये लिङ्गं किं वाक्यानि खलु तर्हि किं भवेत् इमानि वाक्यानि खलु वशुड् बि द सेण्टेन्स् इमानि वाक्यानि तर्हि इदं वाक्यं वेन् ऐ एम् लुकिङ्ग् एट् वन् वाक्यम् इदं वाक्यं पठ वाट् ऐ एम् सेयिङ्ग् रीड् दिस् सेण्टेन्स् रैट् इदं वाक्यं चेद् अव सेण्टेन्स् इदं वाक्यम्
इदं वाक्यं
यु विल् से पठामि यु विल् से वाट् पठामि खलु पुनः वद
इदं वाक्यं
अर्णा आगतवती वा अर्णापि पठ इदं वाक्यं पठामि
पठामि
अग्रे अयं व्याघ्रः अलिख्य पठ अयं व्याघ्रः
अयं वाक्यः अयं वाक्यः
व्याघ्रः व्याघ्रः
व्याघ्रः किं
न न न एकनिमिष ऐ विल् रीड् फस्ट् अयं व्याघ्रः आहाराय भ्राम्यति पठन्तु
अयं व्याघ्रः आहाराय
भ्राम्यति
भ्राम्यति
अलिख्य पठ अलिख्य किम् अभवत्
किं ययामि
या पठतु अलिख्य
अयं व्याघ्रः
आहाराय भ्राम्यति
आहाराय भ्राम्यति
ओके तर्हि प्रश्नः उदेति वाट् इस् द प्रश्नः अयं व्याघ्रः किमर्थं भ्राम्यति वै इस् हि रोमिङ्ग् रैट् किमर्थं भ्राम्यति तर्हि उत्तरम् अयं व्याघ्रः
आहाराय भ्राम्यति
इदानीम् इतोपि एकं प्रश्नमस्ति अयं व्याघ्रः किमर्थं परिभ्रमति वदतु सेद सेण्टेन्स् पठ अलिख्या अरुणा पठ
माय वाय्स् इस् माय वाय्स् ब्रेकिङ्ग् समटैम्स्
अहं तु श्रोतुं शक्नोमि
ओके because I feel like
mama shabdah samyak asti va
yes I can hear you
mine is continuous right arna patha
I feel like mine's breaking even them talking
it is about yourself only you hearing yourself or my part
No, sometimes I feel like my voice is breaking, but it's not.
Okay, okay, anyway, patha, Arna patha.
Ma'am, what should I read?
Are everything what is here, we have to read, I am Vyagraha, Himartham Paribhramati.
I am Vyagraha,
Himartham. परिभ्रमति
परिभ्रमति
उत्तरम् उत्तरं किम्
अयं भ्रह
What should be the answer? Aharaya.
Hello?
Dhamyati.
Dhamyati.
There are two types of questions. Dhamyati. Anyata. Bhramati. Artham samanevasti. Dhamyati tatha bhramati. Artham is what? It is he's wandering, right? In the jungle. And pari is the same word with a little upasarga. But the meaning is the same. Paribhramati. Okay? So in our textbook, these words are used. Paribhramati and Brahmyati. Agre. Id iyam dhenuhu. Ade kya?
Iyam dhenuhu.
Vatsaya.
Vatsaya.
Kshiram vitarati.
Kshiram vitarati.
Kshiram. What is ksha? How does ksha come?
Kshiram.
Shakara yoga? Mudanya shakara khalu? Ksha. I'll show you. It is kakara. Yoga. Mudanya shakara khalu? This ksha. That will give you ksha. This alphabet ksha. Avagata? तर्हि क्षीरं से
क्षीरं
न क्षीरं ककार इस् देर्
क्षीरं
क्षीरं हा पुनः वाक्यं पठतु
इयं धेनुः इयं धेनुः व्यसया
वत्साय पुनः
वत्साय
क्षीरं
क्षीरं
वितरति
वितरति
वत्साय क्षीरं वितरति तर्हि प्रश्नः इयं धेनुः कस्मै क्षीरं वितरति पठन्तु
इयं धेनुः कस्मै क्षीरं वितरति
तर्हि उत्तरं किं कस्मै इति पदस्य उत्तरं किं कस्मै वत्साय पठन्तु कस्मै
वत्साय
इदानीम् इयं धेनुः वत्साय किं वितरति उत्तरं किं वितरति क्षीरं खलु क्षीरम् इस् मिल्क् क्षीरम् इस् वाट् मिल्क् हा तर्हि इयं धेनुः वत्साय किं वितरति
इयं धेनुः
वत्साय
क्षीरं क्षीरं
वितरति उत्तमं खलु किं वितरति क्षीरं वितरति किं क्षीरं कस्मै वत्साय अस्तु तर्हि इदानीम् एकः एव वत्सः अस्ति खलु एकः एव वत्सः इमेजिन् शी इस् गिविङ्ग् मिल्क् टु टू काफ् वत्सद्वयं चिन्तयतु वत्सद्वयं वाक्यं किं भवेत् इयं धेनुः वत्साय वत्साभ्यां डिड् यु जस्ट् सी न वत्साय द्विवचने
वत्साभ्यां
तर्हि वाक्यं वदन्तु इयं धेनुः
क्षीरं वितरति
धेनुः एकः एव अस्ति खलु देर् ओन्लि वन् धेनुः अतः वितरति इदानीं प्रश्नः किं भवेत् तदा पश्य क्वशन् अत्र चतुर्थीविभक्तिरूपं पश्येम जस्ट् मिनिट् किम् इति प्रातिपदिकं खलु कः कौ के प्रथमं पुल्लिङ्ग् एकनिमिषं पठन्तु सर्वे किं प्रातिपदिकं पुल्लिङ्गे वदतु किं प्रातिपदिकं पुल्लिङ्गे कः कौके प्रथमा दातुमपि शक्यते खलु अस्तु विल् सिङ्ग् डैरेक्ट्लि हा कः कौके प्रथमा कं कौकान् द्वितीया तेन काभ्यां कैः तृतीया कस्मै वदतु कस्मै काभ्यां केभ्यः चतुर्थी पुनः कस्मै काभ्यां केभ्यः चतुर्थी इदानीं पश्यतु पुल्लिङ्गे तथा नपुंसकलिङ्गे तृतीया विभक्ति आरभ्य किरिसिदस् कः कौके प्रथमा कं कौकान् द्वितीया नपुंसके किं के कानि खलु प्रथमा द्वितीया परन्तु तथा तृतीया विभक्ति आरभ्य इट्स् आल् सेम् फ्रम् तृतीया आन्वर्ड्स् इट्स् सेम् अवगतं वा पुल्लिङ्ग एण्ड् नपुंसक ओके सी द चतुर्थी वन्स् अगेन् कस्मै वदतु काभ्यां केभ्यः चतुर्थी इदानीम् अत्र पश्य वाक्यं किमासीत् इयं धेनुः वत्साय क्षीरं वितरति इयं धेनुः कस्मै खलु चतुर्थी विभक्ति एकवचनं खलु वत्सः अस्ति खलु वत्सः वत्सौ वत्सः पुल्लिङ्गे खलु तर्हि तस्य चतुर्थी एकवचनं वत्साय तर्हि कस्मै इफ् इट् इस् टु का वत्सद्वयं तर्हि वाक्यं किं भवेत् इयं धेनुः वत्साय वत्साभ्यां खलु इयं धेनुः वत्साभ्यां क्षीरं वितरति अर्णा अवगतवती वा इफ् शी इस् फीडिङ्ग् टु काफ्स् देन् शुड् बि द्विवचनं हा तर्हि वाक्यं वदतु अर्णा इयं धेनुः वत्साभ्यां खलु
वत्साभ्यां
अग्रे किं भवेत् अरुणा इट्स् द सेम् सेण्टेन्स् दट् वि रीडिङ्ग् अगेन् अण्ड् अगेन् रैट् वाट् एल्स् यु टु से नौ वत्साभ्यां किं वितरति क्षीरं खलु तर्हि प्रश्नः किं वत्साय कस्मै फोर् वन् काफ् कस्मै बट् इफ् देर् आर् टु काफ् वत्सद्वयं भवति तदा किं वाक्यं भवेत् प्रश्नवाक्यम् इयं धेनुः कस्मै काभ्यां खलु काभ्यां
कस्मै काभ्यां
तर्हि इयं धेनुः काभ्यां
काभ्यां
क्षीरं
वितरति
आम् इदानीं इदानीं यदि वयं बहुवचनं कुर्मः इमेजिन् शी इस् गिविङ्ग् मिल्क् टु मेनि काफ् थ्री आर् मोर् ओके तदा वाक्यं किं भवेत् इयं धेनुः तदा प्रश्नवाचकवाक्यं किं भवेत् कस्मै काभ्यां केभ्यः खलु तर्हि प्रश्नवाचकं वाक्यं वद इयं धेनुः कस्मै तु एकवचने अभवत् खलु वि आर् टाकिङ्ग् अबौट् बहुवचन ऐ जस्ट् टोल्ड् यू रैट् बहुवचने किं कस्मै काभ्यां केभ्यः तर्हि किं भवत् प्रश्नः इयं धेनुः केभ्यः क्षीरं वितरति अवगतं वा
अनित्या
तर्हि नौ ऐ वाण्ट् यु टु से एक वाक्यम् आफ् वन् एकवचनं प्रश्नवाचकवाक्यम् एकवचनम् अनन्तरं द्विवचनं अनन्तरं बहुवचनं शक्यते वा अरुणा फस्ट् अलिख्या आदौ एकवचनस्य पाठ
यम
धेनुः
धेनुः
वत्साय
वत्साय क्षीरं वितरति.
प्रश्नः
यम यम दे
धेनुः
कस्मै क्षीरं वितरति.
एकवचनम् अभवत् खलु. इदानीं द्विवचनं वत्साय स्थाने किं भवेत्? वत्साभ्यां. कस्मै स्थाने किं भवेत्? कस्मै काभ्यां खलु. इदानीं पठ.
यं धेनुः वत्साभ्यां क्षीरं वितरति.
प्रश्नः
यं धेनुः
काभ्यां
यं धेनुः काभ्यां क्षीरं वितरति.
इदानीं बहुवचने
यं धेनुः वत्सेभ्यः क्षीरं वितरति.
प्रश्नः
इदं
कस्मै काभ्यां केभ्यः
इदम् इयं
धेनुः
इयं धेनुः काभ्यां
खलु केभ्यः
केभ्यः क्षीरं वितरति.
पश्यतु अत्र पुनः दर्शयामि. कस्मै काभ्यां बहुवचने किमस्ति?
केभ्यः.
केभ्यः तदेव. अग्रे पठ वाक्यं पठ अलिख्य.
बालकाः
अहं पठामि अध्ययनाय पठतु.
अध्ययनाय
धकार
अध्ययनाय
पुनः अध्ययनाय पाठालयं
गच्छन्ति.
तर्हि बालकाः अध्ययनाय पाठालयं गच्छन्ति. प्रश्नः बालकाः किमर्थं पाठालयं गच्छन्ति? पठतु.
बालकाः किमर्थं पाठालयं गच्छन्ति?
पाठान ट न ठ अस्ति, महाप्राण अस्ति खलु.
पाठालयं गच्छन्ति.
तर्हि किमर्थम्? अध्ययनाय. पुनः पठ. अध्ययनाय. अध्ययनाय इट् मीन्स् वाट्? टु स्टडि. अध्ययनाय.
अध्ययनाय
उत्तमम्. अग्रे कपयः
भोजनाय उद्यानं
व्रजन्ति.
व्रजन्ति
अर्थात् दे आर् गोयिङ्ग्. व्रजन्ति मीन्स् दे आर् गोयिङ्ग् टु द वाट् इस् ए गार्डन् टु गेट् सम् फुड्. वै? बिकास् वेन् पीपल् कम् देर् दे डिस्ट्रिब्यूट् फुड् रैट् सम् पीपल्. सो दिस् पश्यतु अयं कपि अय्यो अयं कपिः पश्यतु अयं कपिः कदलीफलं खादति खलु. मम तर्हि कपयः भोजनाय उद्यानं व्रजति. कपयः अतः व्रजन्ति. इफ् इट् इस् वन् कपि, कपिः भोजनाय उद्यानं व्रजति खलु. यदि कपिद्वयम्, इफ् इट् इस् कपिद्वयं, तदा कपिः कपी खलु, कपयः कपी भोजनाय उद्यानं व्रजतः एण्ड् इट् इस् एकवचनं ओन्लि वन् कपि देन् इट् इस् कपिः भोजनाय उद्यानं व्रजति. अत्र पश्यतु, सः स्थाने यदि कपि स्युदमः तर्हि किं भवेत्? कपिः कपी कपयः खलु प्रथम. कपिः कपिः कपयः तर्हि कपिः व्रजति. कपिः व्रजतः कपयः व्रजन्ति. एकवचने कपिः, द्विवचने कपी दीर्घ इकार कपी एण्ड् बहुवचने कपयः. इदानीं त्वं वदतु. त्वं
व्रजति
अहं व्रजामि
आवां व्रजावः वयं व्रजामः
तर्हि अग्रे तर्हि अवगतं वा? व्रजन्ति अर्थम् अवगतं खलु? कपिः व्रजति, कपी व्रजतः, कपयः व्रजन्ति, त्वं व्रजसि, युवां व्रजथः, यूयं व्रजथ खलु. अहं व्रजामि, आवां व्रजावः, वयं व्रजामः. अनन्तरं भ्राम्यति वयं दृष्टवन्तः खलु, भ्राम्यति अयं व्याघ्रः आहाराय भ्राम्यति. हि लोमे तर्हि नववाक्यानि पठति वा आलेख्य आदौ पश्यतु. पठ अयं भ्राम्यति, पठतु सर्वं नववाक्यानि.
भ्राम्यति इमौ भ्राम्यतः.
अनन्तरम् अर्णापि पठ. आफ्टर् अर्ण से आल् द नैन् सेण्टेन्सेस् आदौ अलिख्य.
इमे भ्राम्यन्ति, त्वं भ्राम्यति, युवां भ्राम्यः, अहं भ्राम्यामि, आवां भ्राम्यावः, वयं भ्राम्यामः.
अलिख्य अभवत्? अर्णा न पठितवती वा? अर्णा अपि पठ नैन् सेण्टेन्सेस्. नववाक्यानि पठ अर्णा. अयं भ्राम्यति, इमौ भ्राम्यतः,
यूयं भ्राम्यथ, भ्राम्यामि, आवां भ्राम्यावः, वयं भ्राम्यामः.
अवगतं वा?
What does vrajanti mean?
Vrajati mean it. See, अत्र अग्रे एकं वाक्यमस्ति. एकनिमिष एकं वाक्यमस्ति अग्रे, अहं दर्शयामि. I'll show you. वितरति, अत्र वितरति अस्ति खलु. व्रजति बालिका पुष्पाय उद्यानं व्रजति. She is going, right? She goes to the garden to get flowers. Avagatama, to get a flower. Tari balika pushpaya udyanam vrajati. Arna, do you have your textbook now? Pathya pustakam asti ka?
Yes.
Tari open the book. Where is your book? Open it. पञ्चविंशतिपुटे पञ्चविंशति वाट् इस् पञ्चविंशति वाट् इस् द संख्या इन् पञ्चविंशति अर्थात् 25 खलु पञ्चविंशति तत्र व्रजति अस्ति खलु अत्र पश्य अत्र पश्य व्रजति अत्र बहुवचनं दत्तमस्ति व्रजन्ती अस्ति खलु बिकास् इन् द टेक्स्ट् बुक् द वर्ड् व्रजन्ती इस् यूस् देट्स् वै देट् इस् गिवन् बट् एकवचने व्रजति व्रजतः बहुवचने व्रजन्ति अधुना अवगतम् अर्ना आं अर्ना अर्णा अर्णे अर्णे न स्न प्रतिसादं ददाति अस्तु
किं
अय्यो फैण्डिङ्ग् मीन्स् वाट् इट् इस् 25 पेज् 25 ऐ हव् शो जस्ट् नौ शोन् यू आन् द स्क्रीन् ओके तावत् अलिख्य आरम्भं करोतु पठतु पश्यतु बाला किं करोति इयं बाला किं करोति सस्याय जलं यच्छति खलु सेण्टेन्स् इस् हियर् ओके आन् द रैट् टाप् इयं बाला सस्यं सस्ये वदतु सस्यं सस्ये सस्यानि नपुंसकलिङ्गपदमस्ति शुशी गिव् वाटर् टु द प्लाण्ट् यच्छति यच्छति मीन्स् गिव् तत्र बालदर्शपुस्तके पश्यतु तस्य अधः अस्ति एव यच्छति अत्र यच्छथ मध्यमपुरुषे लिङ्गं किं मध्यमपुरुषे बहुवचनं खलु मध्यमपुरुषे बहुवचनं यच्छसि त्वं यच्छसि युवां यच्छथः यूयं यच्छथ खलु प्रथमपुरुषे एकवचने यच्छति टु गिव् गिव्स् ओके सो शी इस् गिविङ्ग् वाटर् टु द प्लाण्ट् सस्यम् इयं बाला सस्याय जलं यच्छति तर्हि सस्यं नपुंसकलिङ्गे तर्हि प्रश्नवाचकं किं भवेत् कस्मै काभ्यां केभ्यः एकवचने कस्मै इयं बाला कस्मै जलं यच्छति अवगतं वा अलिख्य इयं बाला कस्मै जलं यच्छति सेम् सेण्टेन्स् कस्मै प्रश्नस्य उत्तरं किं सस्याय खलु किम् आसीत् कस्यै कस्यै क्षीरं वितरति वत्साय उत्तरं किम् आसीत् कस्मै शब्दस्य वत्साय इदानीं कस्मै सस्याय खलु इतोपि can we add the question another can we make the question more bigger iyam bala kasmai kim yachati trikim yachati jalam yachati halo jalam naman sake atha kim agre iyam bala satyebhyah jalam yachati now look at the second picture dvitiyam chitram pashya tatra she is planting not just one plant but many plants right she is watering many plants trikim bhavet sasyaya sasyaphya sasyebhya khalu she is giving water to many plants
right
jalam yachati iyam bala sasyebhya jalam yachati prashna kim bhavet
इयं बाला
केभ्यः जलं यच्छति ऐ मेड् काम्प्लिकेटेड् मेक् इट् फार् सिम्पल् इयं बाला केभ्यः जलं यच्छति खलु
इयं बाला सस्येभ्यः जलं यच्छति
नौ एड् नौ एनदर् एड् वन् मोर् क्वशन् इन् द क्वशन् So what will be the question? इयं बाला केभ्यः किं यच्छति
इयं बाला किं बाला किं यच्छति
तर्हि केभ्यः उत्तर सस्येभ्यः खलु केभ्यः
सस्येभ्यः
किं प्रश्नस्य उत्तर जलं खलु किं यच्छति जलं यच्छति अवगतम् अग्रे बालिका पुष्पाय उद्यानं व्रजति व्रजति मीन्स् वाट् शिबोल् तर्हि पठतु वाक्यम् अलिख्या
बालिका
पुष्पाय
उद्यानं व्रजति
अर्णा पठ
बालिका पुष्पाद
उद्यानम्
उद्यानं
व्रजति
व्रजति
तर्हि प्रश्नः किं भवेत् अलेख्या के थिङ्क् आफ् द क्वश्चन् पुल्लिङ्गे नपुंसके द क्वश्चन् इस् द सेम् रैट् पुष्पम् इस् नपुंसक् सो द क्वश्चन् विल् बि सेम् कस्मै किम् एक मिनिट् वाट् शुड् बि द क्वश्चन् नौ ओके रिमेम्बर् नौ देर् आर् टु डिफ्रेण्ट् टैप्स् आफ़् क्वश्चन्स् हियर् केन् यु सी ऐ विल् मेक् फस्ट् शो दिस् स्क्रीन् हियर् सी हियर् द क्वश्चन् इस् किमर्थं रैट् बट् हियर् द क्वश्चन् इस् नाट् किमर्थं हियर् इट् इस् कस्मै रैट् कस्मै काभ्यां केभ्य बट् हियर् इट् इस् जस्ट् किमर्थं केन् यु टेल् ऐल् से टेल् यु द डिफ्रेन्स् फस्ट् हियर् ही इस् गोयिङ्ग् टु गेट् समथिङ्ग् रैट् फुड् रैट् द व्याघ्रः इस् गोयिङ्ग् टु गेट् फुड् सो हि आहाराय भ्राम्यति खलु परन्तु हियर् द धेनुः इस् गिविङ्ग् मिल्क् टु द का शी इस् गिविङ्ग् समथिङ्ग् शी इस् नाट् गोयिङ्ग् टु फैण्ड् समथिङ्ग् बट् शी इस् गिविङ्ग् हर् सेल्फ् रैट् सो द डिफ्रेन्स् बिट्वीन् द टु एक्षन्स् वन् इस् टु फैण्ड् समथिङ्ग् एण्ड् वन् इस् टु गिव् अवगतं वा सो वेन् इट् इस् गिविङ्ग् वेन् द भाव् इस् टु गिव् देन् इट् विल् बि कस्मै काभ्यां केभ्यः बट् वेन् द भाव् इस् टु ओप्टेन् समथिङ्ग् टु गेट् समथिङ्ग् देन् द क्वश्चन् आन्सर् शुड् बि किमर्थं क्वशन् शुड् बि देन् किमर्थं यथा मुख्य बालकाः अध्ययनाय पाठालयं गच्छन्ति आर् दे गोयिङ्ग् टु गिव् समथिङ्ग् और् गेट् समथिङ्ग् आलिख्य दे गोयिङ्ग् टु गेट् समथिङ्ग् रैट् टीचिङ्ग् रैट् दे गोयिङ्ग् टु गेट् सम् नालेज् रैट् टु गेट् रैट् एण्ड् देट् फोर् क्वशन् इस् किमर्थं नौ देर् इस् नो कस्मै काभ्यं केभ्य फोर् एक्साम्पल् हियर् आल्सो कपयः भोजनाय उद्यानं व्रजन्ति तर्हि क्वशन् शुड् बि वाट् टु गेट् समथिङ्ग् रैट् क्वशन् शुड् बि किमर्थं कपयः किमर्थम् उद्यानं व्रजन्ति किमर्थं भोजनाय अवगतम् नौ लेट् इस् लुक् हियर् बट् हियर् सी द वाटर् बालिका इस् गिविङ्ग् वाटर् सो शी इस् दट् इस् वाट् आफ् गिविङ्ग् रैट् एण्ड् नाट् गेटिङ्ग् सम् सो वेन् द एक्षन् इस् गिविङ्ग् देन् इट् वुड् बि क्वशन् वुड् बि कस्मै काभ्यां केभ्यः आल् दिस् थिङ्ग्स् विल् कम् अवगतम् केभ्यः सस्येभ्यः कस्मै सस्याय आल् दीस् क्वशन्स् विल् कम् नौ लुक् हियर् शी इस् गोयिङ्ग् टु गेट् अ फ्लवर् फ्रोम् द गार्डन् so what is the action kriya kriya is to get something or to give something
get something
to get something so the question should be what kimartham
balika
kimartham
balika kimartham
udyanam
udyanam vrajati
vrajati kimartham vrajati pushpaya uttaram kim
pushpaya vrajati
द्वितीयं वाक्यं नौ इन् दिस् द्वितीयं चित्रं देर् आर् टु गर्ल्स् ओके इमेजिन् टु गर्ल्स् सो वाट् शुड् बि द सेण्टेन्स् नौ
बालिके 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 पुष्पाय उद्यानं व्रजतः
बालिके व्रजतः बालिका व्रजति बालिके व्रजतः खलु बालिकाः
बालिकाः व्रजन्ति. अवगतं वा? इदानीं प्रश्नवाचकं, प्रश्नवाचकं वाक्यं किं भवेत् अत्र? बालिके किमर्थम्
उद्यानम्
रजतः? तर्हि उत्तरं बालिके
पुष्पाय उद्यानम् उद्यानं प्रजतः.
अर्ना अवगतम्? अर्ना सो से द सेण्टेन्स् अण्ड् आल्सो आस्क् द क्वश्चन् अगेन्. डु इट्. द्विवचनं बालिके
बालिके
पुष्पाय उद्यानम् व्रजतः. प्रश्नः किं भवेत्? प्रश्नः
बालिके
they're going to get something, right? So the question should be what? Kimartham?
Balike kimartham?
You all know, Arna. Kimartham khalo? Balike kimartham udyanam vrajataha? Vadato.
Balike kimartham?
Kimartham. Say kimartham.
Kimartham?
Not kimartham. किमर्थम्? जस्ट् से इन् वन् वर्ड् किमर्थम्?
किमर्थम्
से
बालिके किमर्थम्
उद्यानम्
उद्यानम्
व्रजतः? Why you are stopping in between, Arana? You're only wasting time. Say the complete sentence. If you, okay, if you've got a problem in the spelling, I told you the spelling, right? Now say the complete sentence, Arana.
Balike
kimartham
kimartham
udyanam
udyanam
vrajatah
vrajatah.
What is the answer to this question? You have said a question, right, just now? So what is the answer to that question?
Balike
pushpaya
pushpaya
say the complete sentence. Udyanam
udyanam rajatah.
Ayo tha asti va atra. व्रजतः खलु? अग्रे इदानीं बालिकाः, अत्र चित्रं पश्यतु अर्ना. अलिख्या, इदानीम् अलिख्या किम् अवगम्यते फ्रोम् द पिक्चर्? वाट् यु गेट्? बालिकाः बहुवचनं खलु?
पुष्पाय उद्यानं व्रजन्ति.
प्रश्नः किं भवेत्?
बालिकाः बालिकाः किमर्थम्
किमर्थं थ महाप्राण
किमर्थम् उद्यानं व्रजन्ति?
अवगतम्. इदानीम् अरुणा सी द सेण्टेन्स् एण्ड् देन् द क्वशन्. बालिकाः
काः
पुष्पाय
उद्यानं व्रजन्ति.
प्रश्नः किमर्थम्
उद्यानं व्रजन्ति?
So what is the question actually? Why are the girls going to the garden? They are going to get flowers, right? Now, agree, Sarema. Agree, Alekya. नौ फोगेट् वाट् इस् रिटन् बिलो ओके हस्तेन वाक्यस्य आदर्शनं करोतु हैड् द सेण्टेन्स् इस् यु हेड् फ्रोम् द पिक्चर् वाट् कम्स् इन् द मैण्ड् टेल् मी अलिख्य लुक् एट् द चित्रं
धेनुः
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 वत्साय
धेनुः वत्साय
क्षीरं
क्षीरं वितरति
प्रश्नः किं भवेत् धेनुः
धेनुः कस्मै क्षीरं वितरति
आम् इतोपि एकं प्रश्नं धेनुः वत्साय किं वितरति धेनुः वत्साय क्षीरं वितरति धेनुः कस्मै किं वितरति उत्तर वत्साय क्षीरं वितरति खलु
क्षीरं वितरति
कस्मै पदस्य उत्तरं किं कस्मै वत्साय किं
क्षीरं
खलु बालः अस्ति बालः एकः सरोवरः अस्ति पाण्ड् सरोवरः अस्ति तत्र गतः अस्ति हि इस् गोन् देर् अहं जलाय न सरोवर नास्ति नदी अस्ति अहं जलाय नदीं गच्छामि वाट् इस् से अहं पठतु
अहं जलाय नदीं
जलाय जलं नपुंसके अस्ति खलु जलं जले जलानि खलु चतुर्थीवचनं जलाय यथा बाल बालाय वत्स वत्साय परन्तु नपुंसके समान अस्ति ऐ विल् जस्ट् शो यू एक मिनिट् नपुंसके पुल्लिङ्गे तथा नपुंसके विभक्तिरूपं समानम् न प्रश्न तत्तु प्रश्नः अस्ति अत्र पश्यतु रामाय रामाभ्यां रामेभ्यः राम प्रातिपदिकं राम वत्स वत्साय वत्साभ्यां वत्सेभ्यः परन्तु वन नपुंसकलिङ्ग वनं वने वनानि प्रातिपदिकं वन अकारान्त नपुंसकलिङ्ग वन शब्दः तदा वनाय वनाभ्यां वनेभ्यः इट्स् सिमिलर् टु रामाय रामाभ्यां रामेभ्यः खलु रूपाणि समानम् तर्हि अत्र जलं यदि जल इति स्वीकुर्मः प्रातिपदिकं जल जलं जले जलानि तर्हि जलाय पद जलाय जलाभ्यां अवगतं वा तर्हि जलाय अहं जलाय वदतु
अहं जलाय
नदीं
गच्छामि
तर्हि दिस् इस् हिस् सेण्टेन्स् दिस् सेण्टेन्स् इस् आफ् हू कः वदति अयं बालः एव वदति खलु but when we look at the bala when we are seeing him what we will say what will be our vakyam I am balakah anyatha I am balakah
ya nadim gachati
this is our sentence right when we are looking at him this is what we will say avagatam va alikya did you get the difference I am balakah जलाय नदीं गच्छति अस्तु इदानीं वाट् शुड् बि द क्वशन् केन् यु थिङ्क् आफ् वेन् यु लुक् एट् द बाय् वाट् वी विल् आस्क् हिम् वै आर् यु गोयिङ्ग् टु द रिवर् रैट् त्वं वाट् इस् द क्वशन्
त्वं
गच्छति
गच्छसि
अवगतं खलु त्वं किमर्थं नदीं गच्छति वयं गोयिङ्ग् त्वं किमर्थं नदीं गच्छति?
गच्छसि.
मम दोषः भवत् खलु. इफ् इट् इस् त्वं, वाट् शुड् बि द क्रियापदं? गच्छति. करेक्ट्लि रैट्? सो वाट् शुड् द सेण्टेन्स् नौ? वन्स् अगेन् से त्वं किमर्थं
नदीं
गच्छसि? उत्तमं वा? तर्हि बालः किं वदति? ओके, सपोज़् वी आस्क् दिस् क्वेश्चन्, वाट् द बाल विल् रिप्लै, वाट् हि विल् से?
अहं जलामि जलाय नदीं गच्छामि.
त्वं किमर्थं नदीं गच्छसि? अहं जलाय नदीं गच्छामि. इदानीम् ऐ विल् आस्क् क्वेश्चन् अलिख्य. त्वं किमर्थं वर्ग त्वं किमर्थं अस्तु तत्र नो, इट् शुड् बि सम्थिङ्ग् डिफ्रेण्ट्. त्वं किमर्थं पाठालयं गच्छसि? नार्मल् क्वेश्चन् अलिख्य. वै गुण्ट् टु द स्कूल्? त्वं किमर्थं पाठालयं गच्छसि? अहम् अध्ययनाय.
अहम् अध्ययनाय
पाठालयं
गच्छामि.
अर्णा अवगतं वा? ऐ आस्क् द क्वेशन् टु अर्णा नौ. त्वं किमर्थम् उद्यानं गच्छति? अर्णा, द क्वेशन् इस् टु यू. त्वं किमर्थम् उद्यानं गच्छसि?
गच्छसि.
अर्णा उत्तरम्.
अहं
क्रीडनाय, टु प्ले रैट्? यु गो टु द पार्क् टु प्ले रैट्? अहं क्रीडनाय
उद्यानं.
क्रियापदं किं भवेत्? अहं किम्? अत्र पश्य, अहं किं भवेत् क्रियापदं? गच्छामि खलु. अग्रे अत्र पश्य, देर् आर् टु बाय्स्, ओके, हियर् फस्ट् चित्र उपरि. वाट् आर् दे सेयिङ्ग्? आवां जलाय नदीं गच्छावः. दे डोण्ट् हेव् वाटर् एट् होम्, दे आर् गोयिङ्ग् टु द रिवर् टु ब्रिङ्ग् वाटर्. आवां जलाय नदीं गच्छावः. वाक्यं पठन्तु.
आवां जलाय नदीं गच्छावः.
त्रि जस्ट् मेट तर्हि वाट् शुड् बि द क्वशन् हियर्? वाट् विल् वाट् वी विल् आस्क् दिस् बाय्? यु वाम् यु टु रैट्? किमर्थं
नदीं
खलु? किमर्थं नदीं गच्छतः? ऐ विल् शो यु द क्रियापदकोष्टकं, पश्यतु. अत्र त्वं गच्छसि, युवां गच्छतः खलु, निसर्ग गच्छतः. तर्हि पुनः प्रश्नः किं भवेत्? युवां किमर्थं नदीं
गच्छतः?
तर्हि बालकः किं वदन्ति? वाट् विल् बि दि आन्सर्? वाट् दे विल् से? आवां
जलाय नदीं गच्छावः.
आवां गच्छावः. वै आवां? बि टु रैट्? आवाम् इस् वाट्? बि टु अस्मत्शब्दस्य प्रातिपदि द्वितीयरूपं, पश्यतु. अहं गच्छामि, आवां गच्छावः. वः अस्ति खलु, आवां गच्छावः. तर्हि बालः अस्ति, आवां जलाय नदीं गच्छावः. इदानीम् इदं वाक्य अभ्यासं पूर्णं कुर्मः. इदानीं बालः बहुवचनमस्ति खलु, 3 or 4, many of them are there, 3 or 4. And वयं जलाय नदीं गच्छामः वदन्तु वाक्यं
वयं जलाय नदीं गच्छामः
Now looking at them, what will be your vakyam, Alekya? What you will say?
Aham.
You're, not aham. You are going to look at them and you are going to ask something.
Oh.
You all, right? So, you-yam.
You-yam. You-yam. Kimartham. Nadim gacha.
Gachatha.
Gachatha.
Ah, Purum it was thaha, right? Gachatha. For two years, do you have युवां गच्छतः यूयं गच्छत खलु पुनः वदतु अलेख्य पुनः वद यूयं
यूयं किमर्थं नदीं गच्छत
आम् सो वाट् द चिल्ड्रन् विल् से वयं
वयं जलाय नदीं गच्छामः
ओके सो द क्वेश्चन् इस् यूयं किमर्थं नदीं गच्छथ वयं जलाय नदीं गच्छामः ओके ओके एण्ड् वेन् यु लुक् एट् द चिल्ड्रन् वाट् युल् से यूयं जलाय नदीं गच्छ सपोज़् यु नो वै दे आर् गोयिङ्ग् नौ यु नो इट् ओके सो देन् वेन् यु लुक् एट् देम् डूयिङ्ग् दिस् एक्षन् वाट् यु विल् से यूयं जलाय नदीं गच्छथ रैट् वेन् यु सी दिस् एक्षन् वाट् यु विल् से देट् यु आल् आर् गोयिङ्ग् टु द river for water right okay say looking at the chitram what comes in your mind now yum you know now what has happened so yum
yum jalaya nadim gachata
and look at this chitram the our uparitanam chitram pasya tatra kim bhavati two children so what you say yuvam jalaya
jalaya nadim gachavah
and if it is ekvachanam atra balam pasya so what you will say tvam what you will say when you look at one child you will say tvam
tvam kimartham
nana prashnah nasti when you look at him what comes in your mind what you can say tvam jalaya nadim
नदीं
गच्छसि हलो त्वं गच्छसि अवगतम् ओके सो विल् जस्ट् फिनिश् वित् दिस् वन् टेबल् दे वास् इन् द वाट्सप् गना टुडे यु ह देर् आर् पोस्टिङ्ग्स् रैट् आफ् दट् सिङ्गिङ्ग् आफ् द तालिका न विभक्ति तालिका सो ऐ जस्ट् टेल् यु वन् थिङ्ग् सम् प्लेसेस् यु पीपल् आर् सिङ्ग् अकारान्तम् एण्ड् सम् प्लेसेस् यु आर् सिङ्ग् अकारान्तः सो यु शुड् डू दिस् in two ways okay I'll sing and just listen to me akarantah pumlingah rama shabdah akarantah pumlingah rama shabdah this is one way of saying it that is ramah ramau ramah prathama and so on right but other way is what akarantam pumlingam nama rama just say akarantam say
Nama,
Rama. So here you're saying, here you're saying the Dvitiya Vibhakti Rupam. Another. Akarantam, Stri Lingam.
Akarantam, Stri Lingam.
Nama, Sita. Another way is what? Akarantah. Can you see this is written here, right? Akarantah is written, right? Akarantah, Stri Lingah. Can I do?
Akarantah, Stri Lingah.
Stri Lingah, Sita, Shabdah. So here all Prathama Vibhakti Rupam is used. Akarantah, Stri Lingah, Sita, Shabdah.
आकारान्तं स्त्रीलिङ्गम्
अयो अयो अरे इफ् यु सिङ्ग् आकारान्तं देन् यु हव् टु से इट् डिफ़्रेण्ट्लि ऐ एम् सेङ्ग् द टु डिफ़्रेण्ट् थिङ्ग्स् रैट् आकारान्तं स्त्रीलिङ्गं नाम सीता दिस् इस् वन् वे आफ् सिङ्गिङ्ग् अदर् वे इस् वाट् से द रूप् एस् इट् इस् इन् द प्रथमा विभक्तिरूपम् आकारान्तः स्त्रीलिङ्गः सीता शब्दः दिस् इस् वाट् अलिके डस् नार्मलि रैट् अलिके सिङ्ग्स् इट् दिस् वे रैट् द अदर् वे आफ् सिङ्गिङ्ग् इट् वुड् बि वाट् आकारान्तं स्त्रीलिङ्गं नाम अत्र अकारान्तं नपुंसकलिङ्गं नाम वन गॉट इट् or else if you don't want to say namasana what is the other name now akara akarantah napumsaka lingah vana shabdah for alikita family right what the difference between the two so I mean you stick to one don't do the mixture of the two just मङ्गलं करोति वा एकनिमिष मङ्गलं कुर्मः अनेक्य मङ्गलं करोतु पूर्णमिदम्
पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः
उत्तमम्